प्रतिष्ठा जनकस्य संपत् पुत्रस्य नाशेन पिता हि दुह्यते पुत्रस्य दुःखम् अवहेलना वा कृता कथं वै जनकेन सह्यते।
निंदिते पुत्रे क्रोधान् भोजायते